विद्याः समस्तास्तव देवि भेदाः स्त्रियः समस्ताः सकला जगत्सु त्वयैकया पूरितमम्बयैतत् काते स्तुतिस्तव्यपरा परोक्तिः या देवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्यै 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 नमो नमः अहो सौभाग्यमस्माकं यत् वयम् उपस्थिताः भवतां समक्षम् एतादृशे महत्पुण्य संवर्धन दैवप्रदे मातृशक्ति समर्पिते अन्ताराष्ट्रिय महिला दिवस पुण्यदिने प्रियाः सुरभारती समुपासकाः श्रोतारः कन्यापाद प्रक्षालन मातृपूजन सौभाग्य मन्यमाने अस्माकं भारत देशे नार्याः दैवतुल्याः पूजनीयाः अतः मातृशक्तिभ्यः प्रणाम प्रणति पूर्वकं चरण वन्दनेन सह सुरभारती समुपासकस्य संस्कृत साप्ताहिकी इति कार्यक्रमस्य नवांकेन सह समुपस्थितोऽस्मि कार्यक्रमस्य उद्घोषकत्वेन अहम् सुरेश चंद शर्मा हृदयान्तस्थ भावेन सौख्य सरल मृदु श्रोत्रिणां पौनः पुन्येन अत्र स्वागतम् जननी जन्मभूमिश्च स्वर्गादपि गरीयसि एतादृश भाव पुरस्सरं प्रारम्भं कुर्मः कार्यक्रमस्यास्य मित्राणि साहस ऊर्जा निश्चय प्रणति पूर्वकं लक्ष्य प्राप्तिः सरला तादृशाणां साहसवताम् उत्तम जनानां विषये कार्यक्रमस्यास्य प्रारम्भिके सुभाषित प्रभागे अस्माकं सहयोगिनी रिंकु जोशी प्रतिपादनं करोति तावत् शृणुमः
आरभ्यतेन खलु विघ्नभयेन नीचैः आरभ्य विघ्न विहता विरमन्ति मध्यः विघ्नैः पुनः पुनरपि प्रतिहन्यमानः प्रारभ्य चोत्तम जनान परित्यजन्ति
प्रियाः कार्यक्रमस्य अस्य प्राणभूते प्रसंग प्रभागे गायन रीति प्रस्तुत्या अस्माकं समेषां चित्त हृदय सौख्यमनुभवति तादृक् प्राणभूतं प्रसंग प्रभागं प्रस्तौति अस्माकं सहयोगी जतिन शर्मा
अंगं गलितं पलितं मुण्डं दशन विहीनं जातं तुण्डम् अंगं गलितं पलितं मुण्डं दशन विहीनं जातं तुण्डम् वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत् त्याशापिण्डं भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते
मित्राणि एतस्मिन् जगति प्रतिदिनं प्रतिनिमेषे च नैकाः नैक प्रकारिकाश्च घटनाः अस्माभिः दरीदृश्यन्ते तादृक् सप्ताह पर्यन्तं घटितानां घटनानां वर्णनं क्रियते अस्माकं सहयोगिना गणेश हेगडे महोदया वार्ता प्रभागे
पश्चिम एशियायां संघर्षः तीव्रतरः अभवत् एतन्मध्ये प्रधानमन्त्रिणा प्रोक्तं यत् भारतं संवादस्य कूटनीतेः च माध्यमेन सर्वेषां विवादानां समाधानस्य समर्थनं करोति पश्चिम एशियायां वर्धमानस्थित्याः कारणात् केन्द्रेण राज्यानां कृते परामर्शः प्रकाशितः यत् ते सावधानाः भवेयुः प्रधानमन्त्रिणा नरेन्द्रमोदिना साम्प्रतिकीं स्थितिम् अभिलक्ष्य पश्चिम एशियायाः विभिन्न राष्ट्रप्रमुखैः सह दौरभाषिक संवादो विहितः प्रधानमन्त्रिणा नरेन्द्रमोदिना कनाडादेशस्य प्रधानमन्त्रिणा मार्क कार्नी इत्यनेन सह प्रतिनिधिस्तरीय वार्ता कृता भारत कनाडादेशयोः मध्ये विभिन्न क्षेत्रेषु त्रिषु सन्धिपत्रेषु हस्ताक्षराणि अपि जातानि प्रधानमन्त्री नरेन्द्र मोदी दृश्य सम्मेलनद्वारा कृषि ग्रामीण परिवर्तन विषये पश्चात् बजट वेबिनार सत्रं सम्बोधितवान् अस्मिन् कार्यक्रमे कृषिः पशुपालनं तथा दुग्धपालनं मत्स्यपालनं ग्रामीण जीविका इति चतुर्भिः प्रमुख क्षेत्रैः समाविष्टानि अष्टानि विभिन्नानि वेबिनार सत्राणि आयोजितानि वर्तन्ते
प्रिय श्रोतारः, सम्प्रति पर्यायो वर्तते विदुषां साक्षात्कारस्य। साप्ताहिक्याः ज्ञान विज्ञान प्रभागस्य एतस्मिन् अंके गुजरात प्रदेशे उमा कला नाथिब वाणिज्य महिला महाविद्यालये प्राचार्य पदभूषितः डॉक्टर ललित पटेल वर्यः समुपस्थितः अस्ति। अमुना साकं संवादं साधयति अस्माकं सहयोगी पुनीत त्रिपाठी। प्रस्तूयते तावत् श्रवण सुभगः साक्षात्कारः भवतां ज्ञान मनोमोदाय।
प्रियाः श्रोतारः, अद्य अस्माभिः साकं संस्कृत साप्ताहिक्याः ज्ञान विज्ञान प्रभागेऽस्मिन् संवादाय उपस्थिताः वर्तन्ते सर्वविद्यालय केलवणी मंडल न्यासेन संचालितस्य उमा आर्ट्स एंड नाथिबा कॉमर्स महिला महाविद्यालयस्य प्राचार्याः श्रीमन्तः डॉक्टर ललित कुमार पटेल महाभागाः, यैः विभिन्नासु संस्थासु विभागेषु च नानाविधानि कार्याणि सम्पादितवन्तः। तेषां स्वागतं करोम्यहं पुनीत त्रिपाठी आकाशवाणी पक्षतः। स्वागतमस्ति भवतां महोदयः अस्मिन् साक्षात्कार प्रभागे।
सर्वेभ्यो नमो नमः, धन्यवादः।
अस्तु महोदयः, सर्वप्रथमं वयं ज्ञातुम् इच्छामः यत् भवान् गुजराती पृष्ठभूमितः, अतः संस्कृत भाषायां भवतः रुचिः कथं विकसिता, कृपया श्रोतृभ्यः वदतु।
नमो नमः। अहं गुजराती माध्यमेन संस्कृतं पठन् आसम् हेमचन्द्राचार्य उत्तर गुजरात विश्वविद्यालये। तस्मिन्नेव काले संस्कृत भारत्या सह सम्पर्कः जातः चन्द्रभूषण पाण्डे नामकेन पूर्णकालिक कार्यकर्तृणा सह, येन अहं संस्कृत अध्ययनाय प्रेरितः। तत्रैव मया अनुभूतं यत् संस्कृतभाषा तु अत्यन्त सरला वर्तते, संवादः तु अस्यां भाषायां कर्तुं शक्यते, परञ्च अन्यानि अपि कार्याणि भवितुम् अर्हन्ति। यथा मया तत्र अनुभूतं, भाषा अध्ययनेन विना शास्त्राध्ययनं तु असम्भवमेव। एवमेव विचिन्त्य मया स्वीया यात्रा समारब्धा।
अस्तु जी महोदयः, अद्यतनः समाजः, जनाः च आधुनिकतां जीवन्तः अनुभवन्तः च सन्ति। संस्कृतज्ञः भवान् कीदृशानि समाह्वानानि अनुभवति, यतोहि भवान् स्वयमेव आधुनिकस्य विद्यालयस्य प्राध्यापकः।
बहुत्तमः प्रश्नः महोदय। यद् आधुनिककाले संस्कृतभाषा कुत्र वर्तते, अहम् आधुनिकस्य विद्यालयस्य प्राचार्यः अस्मि, एतदेव अस्य उत्तरं। यतोहि अहं यद् कर्तुं शक्तवान् एवञ्च यद् भविष्यति, कस्यचिदपि जनस्य उपरि अहम् आश्रितः नास्मि। अतः मम जीवनेन एव अयं पाठः वर्तते यद् उद्योगाय संस्कृतम् आवश्यकम् उत न आवश्यकम् इति। तात्पर्यम् अस्ति यद् यदि अहं संस्कृतज्ञः चेत् विद्यालयस्य वातावरणम् अपि संस्कृतमयं भविष्यति। अहं समाह्वानेन न पश्यामि, अवसरत्वेन कल्पयामि। यथा अस्माकं प्रधानमन्त्रिणः वदन्ति यद् आपदामे अवसर इति, अर्थात् मम कृते तु कार्याणि सम्पादनाय बहवः अवसराः सन्ति। अहं समाजं जनं छात्रम् एकाकी त्यक्तुं नेच्छामि। अहं यत्र कुत्रापि भवामि किन्तु तम् एकाकिनं त्यक्तुं नेच्छामि इति मम भावः। यथा मम इदानीम् आधुनिक महाविद्यालयः, तत्र बहवः विषयाः छात्राः अत्र पठितुम् आगच्छन्ति, ते मुख्यधारारूपेण संस्कृतं न पठन्ति। अतः अस्माकं ये खलु प्रमुखाः सन्ति श्री वल्लभभाई पटेल महोदयः, तेषाम् आशयः अपि आसीत् इमे इंजिनियर छात्राः, मेडिकल छात्राः, फार्मसी छात्राः, तेषां कृते किं, तैः चिन्तितं युवा गीता इति कश्चन प्रकल्पः। इमे छात्राः भवतु, ते इंजिनियरिङ्ग् पठन्तु, मेडिकल् पठन्तु वा फार्मसी पठन्तु, किन्तु भगवद्गीतायाः अपि ज्ञानम् अध्ययनम् अपि कुर्युः, तेषां कृते अत्यन्तम् आवश्यकम्। आवश्यकम् इति विचिन्त्य तैः युवा गीता इति कार्यक्रमः आरब्धः. इदानीं बहवः छात्राः तत्र गीता अध्ययनं कुर्वन्ति. अहम् अत्र आगतः तदा अत्र संस्कृतस्य वातावरणं तु आसीत् किञ्चित्, किन्तु संस्कृत अध्ययन केन्द्रस्य प्रारम्भः कृतः अस्माभिः. तेन कारणेन अङ्ग्रेजी, कम्प्यूटर् इत्यादि विषयेषु ये छात्राः पठन्ति ते अपि इदानीं तेन व्याजेन संस्कृतं पठन्ति इति.
महोदय
जी,
संस्कृत छात्राणां सम्मुखे बृहत्तमेषु समाह्वानेषु अन्यतममस्ति यत् संस्कृतस्य अध्ययनानन्तरं ते कस्मिन् क्षेत्रे कार्यं कर्तुं प्राप्तुं वा शक्नुवन्ति इति. भवान्
जी
छात्राणाम् अस्याः समस्यायाः समाधानं स्वकीये लिखिते पुस्तके संस्कृत वृत्त्यावसराः इत्यस्मिन् कृतवान्. ज्ञातुम् इच्छामि यत् इदं पुस्तकं लेखितुं भवान् कथं प्रेरितः, कृपया प्रतिपादयतु.
उत्तमं, प्रासंगिकः प्रश्नः. यद् संस्कृत छात्राः वृत्त्या अवसराणां कृते कुत्र गन्तुं शक्नुवन्ति, सर्वादौ अत्र अहं वक्तुम् इच्छामि यत् अस्माकं संवादावधौ मया ख्यापितं यत् 70,000 17,000 मया सोमनाथ संस्कृत विश्वविद्यालये आह्वानम् अध्यापनं सम्पादितं, तत्र मया अवलोकितम् अत्र द्विविधाः छात्राः प्रवेशं स्वीकुर्वन्ति. परम्परागत छात्राः ये पाठशालातः आगताः, एवञ्च सामान्य छात्राः खलु सामान्य विद्यालये पठितवन्तः. प्रायः परम्परागत छात्राः कर्मकाण्ड, पौरोहित्य, शिक्षणादि क्षेत्रे एवं जीविकोपार्जनाय नियुक्ताः. ये परम्परागत छात्राः तेषां कृते तु एते अवसराः सन्ति, परञ्च यदा अहं सामान्य महाविद्यालयम् आगतवान् अध्यापनाय समाह्वानं तु मया तत्र अवलोकितं, ये छात्राः आधुनिकरीत्या संस्कृत अध्ययनाय समागताः तेषां प्रथमः प्रश्नः तदेव अस्ति यत् आचार्य, अस्याः भाषायाः अध्ययनेन किं कर्तुं शक्नुमः वयम्, अध्ययनेन कः लाभः, आर्थिक व्यय, आर्थिक उपार्जनं कथं भवति इति तेषां सर्वेषां प्रश्नः आसीत्. अतः कुत्र कुत्र अस्य उत्तरम् अहं वदामि, कस्मै कस्मै अहं ज्ञापयामि संस्कृते अपि वृत्त्यवसराः सन्ति. अतः मया एकः निर्णयः कृतः, अस्मिन् विषये अस्माभिः एकं पुस्तकम् एव लेखनीयम्, अनन्तरम् अस्माभिः समेषां संस्कृत अध्येतॄणां शङ्का समाधानाय दीपेश कतिरा वर्येण साकं संस्कृत वृत्त्यावसराः पुस्तकम् अस्माभिः रचितम्. तत् पुस्तकं सोमनाथ संस्कृत विश्वविद्यालय द्वारा प्रकाशताम् अपि गतम्.
महोदय, अन्ते भवान् कथम् अस्माकं श्रोतॄणां मार्गदर्शनं करिष्यति यत् किं किं तैः करणीयम् इति?
यथा महात्मा गान्धी उक्तवान्, मम जीवनम् एव मम सन्देशः, तथैव मम जीवनम् एव संस्कृत अध्येतॄणां कृते उपदेशः. यथा अहं संस्कृतज्ञः, इदानीम् आचार्यः अस्मि, उद्योगम् अपि प्राप्तवान्. न केवलम् अहम् उद्योगं प्राप्तवान्, अपि तु इदानीं मानं सम्माननम् अपि प्राप्तवान्. केन कारणेन? संस्कृत कारणेन मम मानं, मम सम्माननम्, इदानीं कीर्तिः, यशः अपि प्राप्तं वर्तते. तथैव बहु जनाः, बहु छात्राः इदानीं संस्कृतेन केवलम् उद्योग अवसरस्य चिन्तां न कुर्वन्तु, किन्तु संस्कृतेन अयं लोकः अपि जितः भवति, परलोकः अपि जितः भवति, यतोहि संस्कृतं तु परा भाषा वर्तते. तेन अस्य लोकस्य अपि सिद्धिः भवति, परलोकस्य अपि सिद्धिः भवति. अति अवश्यमेव संस्कृतं तु पठनीयम्. अहं भारतीयः, मम भाषा का? तर्हि संस्कृतम्. अहं भारतीय इत्यस्य परिचायकं तत्त्वं वर्तते संस्कृतम्. अतः तेन अपि अस्माभिः संस्कृतम् अध्येतव्यम् इति मम सन्देशः.
महोदयः, भवते प्रकल्पिताय स्वीय बहुमूल्य समयाय आकाशवाणी पक्षतः अहं पुनीत त्रिपाठी बहुशः धन्यवादाः समर्पयामि.
धन्यवादः. अहमपि अनुगृहीतः पुनीत भाई भवतां साक्षात्कारेण. धन्यवादः.
धन्यवादः.
अस्तु, मिलामः.
संस्कृत स्वरभारती कार्यक्रमाः दैवार्चन समाः मन्यन्ते। तादृक दैवार्चन तुल्यं संस्कृत दिग्दर्शन प्रभागं प्रस्तौति अस्माकं सहयोगिनी निधि झा।
भारतस्य लोक संसदी सम्प्रति गीर्वाण्या भाषान्तरण प्रक्रिया प्रचलति। नैज समये कृत्स्नमपि क्रियाकलापान् सर्वे अपि सांसदाः आकर्णयन्ति। तथैव यूट्यूब वाहिन्यामपि भाषान्तरण प्रक्रियायाः प्रसारो भविष्यति। श्रीलाल बहादुर शास्त्री राष्ट्रीय संस्कृत विश्वविद्यालये भारतीय ज्ञान परम्परायां प्राकृत भाषायाः वैशिष्ट्यम् इति विषये द्विदिवसीय राष्ट्रीय संगोष्ठी आयोजिता।
प्रिय श्रोतारः, बालानां मनोमोदाय बालवल्लरी प्रभागः कार्यक्रमस्य प्राणाधारभूतः, यत्र बालानां मनोमोदाय गार्गी कथां प्रस्तौति अस्माकं सहयोगिनी डॉक्टर साधना शर्मा।
प्रियाः बालाः, भवन्तः जानन्ति वा अद्य विशेषः दिवसः अन्ताराष्ट्रिय महिला दिवसः इति। अस्मिन् दिवसे वयं ताः महिलाः स्मरामः याः स्वज्ञानेन साहसेन च समाजं प्रेरितवत्यः। तर्हि अद्य अहं प्राचीन भारतीयायाः विदुष्याः एकां कथां श्रावयामि। तस्याः नाम आसीत् गार्गी वाचकनवी। पुरा काले राज्ञः जनकस्य सभायां महायज्ञः अभवत्। तत्र बहवः विद्वांसः समागताः। राजा घोषणां कृतवान्, यः अत्र सर्वश्रेष्ठः ज्ञानी भविष्यति तस्मै स्वर्ण श्रृङ्ग युक्ताः सहस्रं गाः दास्यामि। तदा महर्षिः याज्ञवल्क्यः स्वशिष्यम् उक्तवान्, गच्छ एताः गाः आश्रमं नय। सर्वेऽपि मुनयः मौनाः अभवन्, किन्तु निर्भीका विदुषी गार्गी उक्तवती, भो याज्ञवल्क्य, कथं भवन्तः एताः गाः नयन्ति? प्रथमं शास्त्रार्थः भवतु, यः श्रेष्ठः ज्ञानी स एव एताः गाः प्राप्नुयात्। ततः शास्त्रार्थः आरब्धः। गार्गी याज्ञवल्क्यं पृच्छति, भो ऋषे, इदं सर्वं जगत् कस्मिन् अस्ति? याज्ञवल्क्यः अवदत्, गार्गी, एतत् सर्वम् आकाशे। गार्गी पुनः अपृच्छत्, आकाशं कस्मिन् अस्ति? तदा याज्ञवल्क्यः उक्तवान्, अक्षरब्रह्मणि, तद् एव परमं तत्त्वं, यत् ज्ञात्वा मनुष्यः ज्ञानी भवति। गार्ग्याः गभीरैः प्रश्नैः सम्पूर्णापि सभा प्रभाविता जाता। अन्ते सा अवदत् यत्, महर्षे, भवान् नूनं महान् ज्ञानी अस्ति। तर्हि बालाः, अस्याः कथायाः शिक्षा वर्तते यत् नारी केवलं गृहे एव न, सा विदुषी, शिक्षिका, नेत्री अपि भवितुम् अर्हति। अन्ते नारी शक्तिः विजयते इतराम्।
मित्राणि, सम्प्रति वेला समागता एकं भारतं श्रेष्ठं भारतं इति प्रभागेऽस्मिन् सम्प्रति कश्मीरी भाषया सह समुपस्थिता अस्माकं सहयोगिनी डॉक्टर सुषमा शर्मा।
प्रथमं वाक्यमस्ति हिंदी भाषा में, एक भारत श्रेष्ठ भारत का मतलब है कि हमारा देश एक है। संस्कृत भाषायां एकं भारतं श्रेष्ठं भारतम् अस्ति। कश्मीरी में अख भारत श्रेष्ठ भारत हन्द मतलब छी कि पुनन देश अख छी। द्वितीयं वाक्यम् अस्ति हिंदी भाषा में, भारत में कई भाषाएं और संस्कृतियां हैं। संस्कृत भाषायां भारत देशे अनेकाः भाषाः संस्कृतयश्च सन्ति। कश्मीरी में भारत मंज छी नान नान जबान्त संस्कृतियां। तृतीयं वाक्यम् अस्ति हिंदी भाषा में, हमें सभी लोगों का सम्मान करना चाहिए। संस्कृत भाषायां अस्माभिः सर्वेषां सम्मानः कर्तव्यः। कश्मीरी में असनचि हर इंसानुक एहतराम करुण। चतुर्थं वाक्यमस्ति हिंदी भाषा में, हम सब मिलकर अपने देश को मजबूत बनाते हैं। संस्कृत भाषायां वयम् सर्वे मिलित्वा देशं दृढं कुर्मः। कश्मीरी भाषा में असन सारे मिलित देश मजबूत बनावुन। पंचमं वाक्यम अस्ति हिंदी भाषा में, हमें अपने भारत देश पर गर्व है। संस्कृत भाषायां अस्माकं भारत देशे गर्वः अस्ति। कश्मीरी में असन छी पुनन भारत पर फख्र।
मित्राणि सम्प्रति एषः कार्यक्रमांकः स्वीय विरमता पथि अग्रे सरति। भवन्तः सर्वे स्वविचारान् संस्कृत साप्ताहिकी @gmail.com इत्यत्र निश्चयेन प्रेषयन्तु। भवतां विचाराः कार्यक्रमाय अति महत्वपूर्णाः। यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः, यत्रैतास्तु न पूज्यन्ते सर्वास्तत्र फला क्रियाः इति भावेन मातृशक्तिभ्यः वारं वारं वन्दनपूर्वकं सादरं प्रणामः। अग्रिमे सप्ताहे नवाङ्केन सह पुनर्मिलिष्यामः। तावत् शुभं मङ्गलं, नमो नमः। जयतु भारतं, जयतु संस्कृतं, जयतु मातृशक्तिः।